प्रातः स्मरामि गणनाथमनाद बन्धुं जयसिन्दूरपूरपरिशोभितकण्ठयुग्मम् उद्दण्डविघ्नपरिकण्डनचण्डदण्डम् मा खण्डनादिसुरनायक बृन्दवन्द्यम् कूपोद्भवं कुब्जरूपगुणस्वरूपम् आतत्राणरक्षणरक्षककृतावतारम् ब्रह्माण्डविग्रहवरेण्य प्रभासमानौ श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् श्रीगणाधिपं भुजगभूषणभूषिताङ्गम् मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतम् पाशाङ्कुशाभयवरप्रदशूलपाणिं श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् श्रीशङ्खलिखितवरसोदरशिष्टरक्षम् महिमान्वित तव नाम स्मरणतृप्तम् सकलोपनिषत्सारदायक चिरन्तनत्वम् श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् मूकान्धबाधिररक्षक विघ्ननाथम् कूपोद्भवं कारुण्यदिव्यरूपम् करुणात्मकं सकलनिष्कळमात्मरूपं श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् करुणामयं श्रीमद्गणेशपरिपूर्णचित्तं सम्प्यार्दतेष्ठफलदानसमर्थमूर्तिम् उत्तिष्ठ विघ्नविरहाय भजाम्महे त्वम् श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् देवादिदेवसुतदेवगणाधिनाथौ देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपादम् भक्तार्तिभञ्जनशरणागतरक्षकगणेशम् श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् मोक्षादिसौख्यपदवीं खलु काङ्क्षमाणाः नित्यां शुभां तव पदं बहुदाश्रयन्ते भक्तानुरक्तपरिपालक महानुभावौ श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् नित्याभिषेकप्रियगणनाथ विघ्नराजाम् क्षीराभिषेकप्रिय वरसिद्धिविनायकदेवम् श्रीसत्यगणपतीनाम महामहिमान्वितौ श्रीकाणिपाकपुरपतिं भज विघ्ननाथम् गणनाथाष्टकमिदं यः पठेत् स्वामी सन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते।